अथ पञ्चमो अध्यायः अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् श्रीभगवानुवाच सन्न्यासकर्मयोगश्च निःश्रेयसकदाम्बुभौ तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशेष्यते ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते साङ्ख्यं योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः एकमप्यास्थितं सम्यग् उभयोर्विन्दते फलं यत्साङ्ख्यै प्राप्यते स्थानम् तन्योगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति सन्न्यासस्तु महाबाहो दुःखमाप्तुं मयोगतः योगयुक्तो मुनिर्ब्रह्मा न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गढन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रमिवाम्भसा कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये युक्तः कर्म फलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगम् स्वभावस्तु प्रवर्तते नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति दन्तवः ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः येषामादित्यवज्ञानं प्रकाशयति तत्परं तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः गच्छन्त्यपुनरावृत्तिम् ज्ञाननिर्धूतकल्मषाः विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनी Shunitaiva Swapaketa Pandita Samadarshinaha Ihaiva Tairjita Sargo Yesham Sam Yesthitam Manaham Nirdosham Hi Samam Brahma Tasmad Brahmanite Sthitah Na Prahrishyet Priyam Prapya Nodvijet Prapya Cha Priyam Sthira Buddhira Sammoodho Brahma Ved Brahmani Sthitah Bahya Sparsheshva Sagdharma Vindatyatmaniyat Sukham Sabrahma Yoga Yuktatma Sukham Akshayam Ashnute Yehi Samsparsha Jabhoga Dukkha Yonaya Evate Adyantavantah Kaunteya Nate Shuramate Buddhaha Shagnoti Haivaya Sodham Prakshariira Vimokshanat Kama Krododbhavam Vegam Sayukta Sasukhi Naraha Yonta Sukho Antararamas Tathantar Jyotire Vayaha Sayogi Brahma Nirvanam Brahma Bhuto Adhigacchati Labhante Brahma Nirvanam Rishaya Kshina Kalmashah Chinnan Dvaidhayatatmanah Sarva Bhuta Hiteratah Kama Krodha Vimuktanam Yati Nam Yata Chetasam Abhito Brahma Nirvanam Vartate Viditatmanam Sparshan Kritva Bahir Bahyam Chakshus Chaivantare Bhruvoh Pranapanav Samau Kritva Nasabhyantaracharinav Yatendriyam Manobundhir Munir Moksha Parayanaham Vigate Chabhaya Krodho Yasada Mukta Evasaha Bhoktaram Yajna Tapasam Sarvaloka Maheshwaram Suhriddam Sarvabhutanam Nyatva Mam Shanti Marichati Iti Shri Mahabharate Shatasahasriyam Samhitayam Vayasikyam Bhishma Parvani Shrimad Bhagavad Gita Su Panishadsu Brahma Vidyayam Yoga Shastre Shri Krishna Arjuna Samvade Karma Sanyasa Yogo Nama Panchamodhyayam